अव्यादजों घ्रिमणिमां स्तवजान्वथोरु यज्ञोच्युतक कटितटै जठरं हयास्यः हृत्केशवस्त्वदुरैशैनस्तु कण्ठौ विष्णुर्भुजं मुखमुरुक्रमैश्वरकम् चक्र्यग्रतः सह गदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च कोणेषु शङ्खौरुगायुपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषसमन्तात् इन्द्रियाणि ऋषिकेशः प्राणान्नारायणोऽवतु श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु पृष्णिगर्भस्तु ते बुद्धिमात्मानं भगवान् परः क्रीडन्तं पातु गोविन्दशयानं पातु माधवः व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः भुजानैयज्ञभुक् पातु सर्वग्रहभयङ्करः डाकिन्यो यातु धान्यश्च कूष्माण्डायैर्भकग्रहाः भूतप्रेतपिशाचाश्च यक्षरक्षो विनायकाः कोटरारेवती ज्येष्ठा पूतना मातृकादयः उन्मादायेयपस्मारा देहप्राणेन्द्रियद्रुहः स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॐ सर्वं श्री नारायण